यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् धर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय संभवामि युगे युगे नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावका न चैनं क्लेदयन्त्यापो न शोषयति मारुता सुख दुखे समे कृत्वा लाभालाभो जयाजयो ततो युधाय युज्यस्व नैवं पापमवापश्यसि अहंकारं बलं दर्पं कामं क्रोधं च संश्रिता मामातं परदहेषु प्रद्विषन्तो अभ्यसूयका